ॐ नमो भगवते वासुदेवाय। अथाष्टमोऽध्यायः। मैत्रेय उवाच। सनकाद्या नारदश्च रिपुर्हंसो रुणिर्यतिः नैते गृहान् ब्रह्मसुता या वसन्नूर्ध्वरेतसः। मृषाधर्मस्य भार्यासीत् दम्भं मायां च शत्रुहन्। असूतमिथुनं तत्तु निरृतिर्जगृहे प्रजः। तयोः समभवल्लोभो निकृतिश्च महामते। ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः। दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम। तयोश्च मिथुनं जज्ञे यातना निरयस्तथा। सङ्ग्रहेण मया ख्यातः प्रतिसर्गस्तवानघ। त्रिषु त्वैतत्पुमान् पुण्यं विधुनोत्यात्मनोमलम्। अथातः कीर्तये वंशं पुण्यकीर्ते कुरुद्वः। स्वायम्भुवस्यापि मनोर्हरेरंशान् स जन्मनः। प्रियव्रतोत्तानपादौ शतरूपापते सुतौ। वासुदेवस्य कलया रक्षायां जगतस्थितौ। जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः। सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः। एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन् उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत। तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम्। सुरुचिः शृण्वतो राज्ञः शेर्ष्यमाहातिगर्विता। न वत्सन् नृपतेर्धिष्ण्यं भवानारोढुमर्हति। न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मजः। बालोऽसि वतनात्मान मन्यस्त्रीगर्भसंवृतम्। नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः। तपसाराध्यपुरुषं तस्यैवानुग्रहेण मे। गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम्। मैत्रेय उवाच। मातुः सपत्न्या सदुरुक्तिविद्धः श्वसन् रुषा दण्डहतो यथा हिः। हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः प्ररुदन् सकाशम्। तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्सङ्गौ दूय्य बालम्। निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं सपत्न्या। सोत्सृज्य धैर्यं विललापशोक दावाग्निना दावलतेव बाला। वाक्यं सपत्न्या स्मरति सरोज श्रिया दृशा बाष्पकलामुवाह। दीर्घं श्वसन्ति वृजिनस्य पारमपश्यति बालकमाह बाला। मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत्परदुःखदस्तत्। सत्यं सुरुच्यापि हितं भवान् मे यद्दुर्भगाया उदरे गृहीतः। स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम्। आतिष्ठ तत्तात विमत्सरस्त्वमुक्तं समात्रापि यदव्यलीकम्। आराधयाधोक्षजपादपद्मं यदीच्छसे ध्यासनमुत्तमो यथा। यस्याङ्घ्रिपद्मं परिचर्य विश्वविभावनायात्तगुणाभिपत्तेः। अयोध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम्। तथा मनुर्वो भगवान् पितामहोऽयमेकमत्या पुरुदक्षिणैर्मखैः। इष्ट्वाभिपेदे दुर्वापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम्। तमेव वत्साश्रयभृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम्। अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्यभजस्व पूरुषम्। नान्यं ततः पद्मपलाशलोचनात् दुःखच्छिदं ते मृगयामि कञ्चन। यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्गविमृग्यमाणया। मैत्रेय उवाच। एवं संजल्पितं मातुराकर्ण्यार्थागमं वचः। सन्नियम्यात्मनात्मानं निश्चक्रामपितुः पुरात्। नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम्। स्पृष्ट्वा मूर्धन्यघग्नेन पाणिना प्राह विस्मितः। अहो तेजक्षत्रियाणां मानभङ्गममृष्यताम्। बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः। नारद उवाच। नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक। लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु। विकल्पे विद्यमानेऽपि नय्य सन्तोषहेतवः। पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः। परितुष्येत् ततस्तात् तावन्मात्रेण पूरुषः। दैवोपसादितं यावद् वीक्ष्ये स्वर्गतिं बुधः। अथ मात्रोपदिष्टेन योगेन वरुरुत्ससि। यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम। मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः। न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना। अतो निवर्ततामेष निर्बन्धस्तव निष्फलः। यतिष्यति भवान् काले श्रेयसां समुपस्थिते। यस्य यद्दैव विहितं सतेन सुख दुःखयोः आत्मानं तोषयन् देहि तमसः पारमृच्छति गुणाधिकान् मुदं लिप्सेदनुक्रोशं गुणाधमात् मैत्रीं समानादन्विच्छेन्नतापैरभिभूयते ध्रुव उवाच सोऽयं शमो भगवता सुखदुःखहतात्मनाम् दर्शितः कृपया पुंसाम् दुर्दर्शोऽस्मद्विधैस्तु यः अथापि मे विनीतस्य क्षात्रम् घोरमुपेयुषः सुरुच्या दुर्वचो बाणैर्न भिन्ने श्रयते हृदि पदम् त्रिभुवनोत्कृष्टम् जिगीषो साधुवर्त्म मे ब्रूयस्मद्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् नूनम् भवान् भगवतो योऽङ्गजः परमेष्ठिनः वितुदन्नटते वीणाम् हितार्थम् जगतोऽर्कवत् मैत्रेय उवाच इत्युदाहृतमाकर्ण्य भगवान् नारदस्तदा प्रीतः प्रत्याहतम् बालम् सद्वाक्यमनुकम्पया नारद उवाच जनन्याभिहितः पन्था स वै निःश्रेयसस्यते भगवान् वासुदेवस्तम् भजतत्प्रवणात्मना धर्मार्थकाममोक्षाख्यम् य इच्छेच्छ्रेय आत्मनः एकमेव हरेस्तत्र कारणम् पादसेवनम् तत्तात गच्छ भद्रम् ते यमुनायास्तटम् शुचि पुण्यम् मधुवनम् यत्र सान्निध्यम् नित्यदा हरेः स्नात्वानुसवनम् तस्मिन् कालिन्द्याः सलिले शिवे कृत्वोचितानि निवसन्नात्मनः कल्पितासनः प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् सनैर्विदुष्याभिध्यायेन्मनसा गुरुणा गुरुम् प्रसादाभिमुखम् शश्वत्प्रसन्नवदने क्षणम् सुनासम् सुभ्रुवम् चारुकपोलम् सुरसुन्दरम् तरुणम् रमणीयाङ्गमरुणोष्ठे क्षणाधरम् प्रणताश्रयणम् नृम्णम् शरण्यम् करुणार्णवम् श्रीवत्साङ्कम् घनश्यामम् पुरुषम् वनमालिनम् शङ्खचक्रगदा पद्मैरभिव्यक्तचतुर्भुजम् किरीटिनम् कुण्डलिनम् केयूरवलयान्वितम् कौस्तुभाभरणग्रीवम् पीतकौशेयवाससम् काञ्चीकलापपर्यस्तम् लसत्काञ्चन नूपुरम् दर्शनीयतमम् शान्तम् मनोनयनवर्धनम् पद्भ्याम् नखमणिश्रेण्या विलसद्भ्याम् समर्चताम् हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् स्मयमानमभिध्यायेत् सानुरागावलोकनम् नियतेनैकभूतेन मनसा वरदर्शभम् एवम् भगवतो रूपम् सुभद्रम् ध्यायतो मनः निर्वृत्त्या परयातूर्णम् सम्पन्नम् न निवर्तते जप्यश्च परमो गुह्यः श्रूयताम् मे नृपात्मज यम् सप्तरात्रम् प्रपठन् पुमान् पश्यति खेचरान् ओम् नमो भगवते वासुदेवाय मन्त्रेणानेन देवस्य कुर्याद्द्रव्यमयीम् बुधः सपर्याम् विविधैर्द्रव्यैर्देशकालविभागवित् सरिलैः शुचिभिर्माल्यैर्मन्यैर्मूलफलादिभिः षष्टाङ्कुरान् शुकैश्चार्चेत् तुलस्या प्रियया प्रभुम् लब्ध्वा द्रव्यमयीमर्चाम् क्षित्यम् वादिषु वार्जयेत् आभृतात्मा मुनीशान्तो यतवाङ्मितवन्यभुक् स्वेच्छावतारचरितैरचिन्त्यनिजमायया करिष्यत्युत्तमश्लोकस्तध्यायेद्धृतयङ्गमम् परिचर्या भगवतो यावत्यः पूर्वसेविताः ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये एवम् कायेन मनसा वचसा च मनोगतम् परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया पुंसाममायिनाम् सम्यग् भजताम् भाववर्धनः श्रेयो दिशत्यभिमतम् यद्धर्मादिषु देहिनाम् विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा तम् निरन्तरभावेन भजेताद्धा विमुक्तये इत्युक्तस्तम् परिक्रम्य प्रणम्य च नृपार्भकः ययौ मधुवनम् पुण्यम् हरेश्चरणचर्चितम् तपोवनम् गते तस्मिन् प्रविष्टोऽन्तः पुरम् मुनिः अर्हितार्हणको राज्ञा सुखासीन उवाच तम् नारद उवाच राजन् किम् ध्यायसे दीर्घम् मुखेन परिशुष्यता किम् वा नरिष्यते कामो धर्मो वार्थेन संयुतः राजोवाच सुतो मे बालको ब्रह्मन् स्त्रैणेना करुणात्मना निर्वासितः पञ्चवर्षः स मात्रा महान् कविः अप्यनाथम् वने ब्रह्मन् मास्मादन्त्यर्भकम् वृकाः श्रान्तम् शयानम् क्षुदितम् परिम्लानमुखाम्बुजम् अहो मे बत दौरात्म्यम् स्त्रीजितस्योपधारय योऽङ्कम् प्रेम्णारुरुक्षन्तम् नाभ्यनन्दमसत्तमः नारद उवाच मामाशुचस्वतनयम् देवगुप्तम् विशाम्पते तत्प्रभावमभिज्ञाय प्रावृङ्क्ते यद्यशो जगत् सुदुष्करम् कर्म कृत्वा लोकपालैरपि प्रभुः एष्यत्यचिरतो राजन्यसो विपुलयंस्तव। मैत्रेय उवाच इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत्। तत्रापि सिक्त प्रयतस्तामुपोष्य विभावरीम् समाहित पर्यचर दृश्यादेशेन पूरुषम्। त्रिरात्रान्ते कपित्थपदराशनः आत्मवृत्त्यनुसारेण मासम् निन्येऽर्चयन् हरिम्। द्वितीयम् च तथा मासम् षष्ठेर्भगो दिने तृणपर्णादिपि शीर्णैः कृतान्नोऽभ्यर्चयत् विभुम्। तृतीयम् चानयन् मासम् नवमे हनि अभक्ष उत्तमश्लोकमुपाधावत् समाधिना। चतुर्थमपि वै मासम् द्वादशे हनि वायुभक्षो जितस्वासो ध्यायन् देवमधारयत्। पञ्चमे मास्यनुप्राप्य जितस्वासो नृपात्मजः ध्यायन् ब्रह्मपदैकेन तस्थौ स्थाणुरिवाचलः। सर्वतोमनाकृष्य हृदि भूतेन्द्रियाशयम् ध्यायन् भगवतो रूपम् नात्राक्षीत् किञ्चनापरम्। आधारम् महदादीनाम् प्रधानपुरुषेश्वरम् ब्रह्मधारयमाणस्य त्रयो लोकाश्च कम्पिरे। यदैकपादेन सपार्थिवार्भकस्तस्थौ तदङ्गुष्ठनिपीडिता मही न नाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे। तस्मिन्नभिध्यायति विश्वमात्मनो द्वारम् निरुध्या सुमनन्यया धिया। लोकानिरुच्छ्वासनिपीडिता भृशम् स लोकपाला शरणम् ययुर्हरिम्। देवा ऊचुः नैवम् विदामो भगवन् प्राणरोधम् चराचरस्याखिलसत्त्वधाम्नः। विधेहि तन्नो वृजिनाद्विमोक्षम् प्राप्ता वयम् त्वाम् शरणम् शरण्यम्। श्रीभगवानुवाच मा भैष्टबालम् तपसो दुरत्ययान् निवर्तयिष्ये प्रतियातस्वधाम। यतो हि वः प्राणनिरोध आसीदौत्तानपादिर्मयि सङ्गतात्मा। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे ध्रुवचरितेऽष्टमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।